श्री गणेशाय नमः। गौरीयुवाच एषोति चपलो दैत्यान् बाल्येऽपि नाशयत्यहो। अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम। दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः। अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि। मुनिरुवाच अथ ध्यानम्। ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे। त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्। द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं। तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा। अथ कवचम्। विनायकः शिखां पातु परमात्मा परात्परः। अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः। ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः। नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ। जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः। वाचं विनायकः पातु दन्तान् रक्षतु विघ्नः। श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः। गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः। स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः। हृदयं गणनाथस्तु हे रम्भो जठरं महान्। धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः। लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः। गणक्रीडो जानुजङ्घे ऊरुमङ्गलमूर्तिमान्। एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु। क्षिप्रप्रसादनो बाहु पाणीयाशाप्रपूरकः। अङ्गुलीश्च नखान् पातु पद्महस्तोरिनाशनः। सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु। अनुक्तमपि यत्स्थानं धूम्रकेतुः सदावतु। आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु। प्राचां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः। दक्षिणस्यामुमापुत्रो नैऋत्यान्तु गणेश्वरः। प्रतीचां विघ्नहर्ताव्याद् वायव्यां गजकर्णकः। कौबेर्यां निधिपः पायाद् ईशान्यामीशनन्दनः। दिवाव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्। राक्षसासुरवेताल ग्रहभूतपिशाचतः। पाशाङ्कुशधरः पातु रजः सत्त्वतमः स्मृतिः। ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम्। वपुर्धनञ्च धान्यञ्च गृहान् दाराः सुतान् सखीन् सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा कपिलो जाविकं पातु गजाश्वान् विकटोऽवतु भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः न भयं जायते तस्य यक्षरक्षः पिशाचतः त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद्रुतं मारणोच्चाटनाकर्ष स्तम्भमोहनकर्मणि इति श्रीगणेशपुराणे गणेशकवचं सम्पूर्णम्।